एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन वैकल्पिक विकास वित्त परिचालन सम्बद्धम् एतद् विक्रम वर्षीयं विधेयकं सर्वसम्मत्या पारिति कृतमस्ति। उपवेशे उपप्रधानार्थ मन्त्रिणा विष्णु प्रसाद पौडेलेन वैकल्पिक विकास वित्त परिचालन सम्बद्धम् एतद् विक्रम वर्षीयं विधेयकं पारितीकरणीयमिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या पारिति कृतोऽस्ति। विधेयकमाधृत्य विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् उपप्रधानार्थमन्त्री पौडेलः विधेयकेन पूर्वाधार विकासेष् नैज क्षेत्राणां निवेशनम् आकृष्य पूर्वाधार विकासानां नूतन द्वाराणि उद्घाटयिष्यन्ते इति प्रावोचत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयं विद्यालय शिक्षा विधेयकं भूमि सम्बद्धान् काश्चिन् नेपालादि नियमान् संशोधयितुं निर्मितम् एतद् विक्रम वर्षीयं विधेयक सम्बद्धम् संसदीय समितेः प्रतिवेदनं च प्रस्तुते स्तः। उपवेशे प्रतिवेदनं प्रस्तुवन् कृषि सहकारी प्राकृतिक स्रोत समितेः सभापतिः कुसुम देवी थापा विधेयके भूमिहीनानाम् अव्यवस्थितावासानां जनानां व्यवस्थितकरणाय आवश्यक विधिगत व्यवस्था विहिता अस्तीति उक्तवती। एवमेव प्रतिनिधिसभायाः ह्यस्तनोपवेशे अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयं विद्यालय शिक्षा विधेयक सम्बद्धं समितेः प्रतिवेदनं प्रस्तुवन् शिक्षा स्वास्थ्य सूचना प्रविधि समितेः सभापतिः अमर बहादुर थापा सम्बद्ध पक्षाणाम् आवश्यकतां सर्वकारेण शिक्षकैस्सह कृतां सहमतिं च आधृत्य प्रतिवेदनं निर्मितमस्तीति अगदत्। प्रतिनिधिसभायाः उपवेशेन सूचना प्रविधि सामाजिक सञ्जाल सुरक्षा सम्बद्धम् एतद् विक्रम वर्षीयं विधेयकं राष्ट्रिय खेलकूद विकास सम्बद्धम् एतद् विक्रम वर्षीयं प्रथम संशोधन विधेयकं च प्रकरणगत विमर्शनाय सम्बद्धायां समितौ प्रेषयितुं प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदै उत्थापितान् प्रश्नान् उत्तरयन् श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरदसिंह भण्डारी सर्वान् नागरिकान् सामाजिक सुरक्षा कोषेण सह योजयितुं कार्यं विधीयमानमस्तीति प्रावोचत्। प्रतिनिधिसभायाः अपर उपवेशः असैव भाद्रमासस्य त्रयोदशे दिवसे शुक्रवासरे दिवा एकवादने वस्ता। राष्ट्रियसभया प्रतिनिधिसभातः ससन्देशं प्राप्तं नेपाल नागरिकता सम्बद्धं द्वितीय संशोधन विधेयकं सर्वसम्मत्या पारिति कृतमस्ति। राष्ट्रियसभायाः ह्यस्तनोपवेशे गृहमन्त्रिणा रमेश लेखकेन प्रस्तुतं विधेयकमेतत् सभया पारिति कृतमस्ति। तत्पूर्वं विधेयकमाधृत्य विहिते विमर्शने सांसदै उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः मातुः नाम्ना अपि नागरिकतायाः प्राप्तेः अवस्था प्राप्तेः व्यवस्था सुनिश्चितीकृता अस्ति इति अगदत्। तत्पूर्वं सांसदः लिपुलेखमार्गेण चीन भारतयोः व्यापार संविधया नेपालस्य भूभागः अतिक्रान्तः इत्युक्त्वा अन्तर्राष्ट्रिय कौटनीतिक माध्यमेन समस्याम् इमां समाधातुं सर्वकारस्य ध्यानम् आकृष्टवन्तः। अद्य आराश्रम कुशे औंसीति नाम्ना प्रथितं भाद्रकृष्ण अमावस्या पर्व समायोज्यमानं वर्तते। अस्य पर्वणः अवसरे अद्य हिन्दुधर्मावलम्बिनः वर्षावधये देवपितृकार्ययोः कृते प्रयोज्यमानस्य कुशस्य संचयं विदधति। अदेव पितृदेवो भव इति वैदिकमान्यतामनुसरन्तु हिन्दवः स्वकीयेभ्य पितृभ्यो मिष्ठान्न भोजनादि प्रदान पुरस्सरं मुखावलोकनं च विधाय तान् यथोचितं सम्मानयन्ति। अवसरेऽस्मिन् मातृपितृविहीनः सन्ततयः दिवंगत पितृणां तृप्तिकल्याणयोः कामनया काष्ठमण्डपस्य उत्तरकोणे विद्यमानं गोकर्णेश्वरस्य मन्दिरं गत्वा श्राद्धपद्धतेरनुसारेण स्वकीयान् पितृन् तर्पयन्ति। अद्यैव नेपालस्य राष्ट्रिय विभूतेः मोतीराम भट्टस्य षष्ट्युत्तर शततमी जन्मजयन्ती आराश्रम विविधै कार्यक्रमै सह समायोज्यमाना वर्तते। युवकवीर मोतीराम भट्टः माध्यमिक कालिक नेपाली साहित्यस्य शृङ्गारीय काव्यधारायाः प्रवर्तको वर्तते। अनेन नेपाली साहित्यस्य श्रीवृद्धौ विविध काव्य गजल नाटकानि विरचय्य भानुभक्त रामायणं सम्पाद्य च महद् योगदानं विहितं वर्तते। सर्वकारीय सेवा विधेयके प्रकरणगत विमर्शनाय उपविष्टे राष्ट्रियसभाया अन्तर्गताया विधायन व्यवस्थापन समिते उपवेशे सर्वकारीय सेवायां सहसचिव पदे सार्वजनिक विज्ञापनेन पदपूर्ति कर्तव्या न वेति विषये सर्वकारस्य सांसदानां मध्ये विवादस्य उत्पन्नानन्तरम् उपवेशः निष्कर्षेण विना समाप्तोऽस्ति। समितेः ह्यसीम प्रासादे उपविष्टे उपवेशे सांसदाः सर्वकारीय सेवायां सार्वजनिक विज्ञापनेन साक्षात् सहसचिव पदस्य आपूर्तेः व्यवस्थायाः करणत्वेन विधेयके संशोधन प्रस्तावम् प्रस्तुवन्। उपवेशे संघीय विषय सामान्य प्रशासन मन्त्रालयस्य सचिवेन रविलाल पन्थेन प्रतिनिधिसभातः पारितीकृत्य प्रतिवेदनेन सहितं प्राप्तं विधेयकम् पूर्वतन्यावस्थायामेव पारिति कर्तव्यमिति धारणायाः व्यक्तेः पश्चात् उपवेशः निष्कर्षेण विना सम्पन्नः आसीत्। संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता स पृथ्वी सुब्बा गुरुङ कथयति लिपुलेखस्थानं नेपालस्यैव भूमिः वर्तते। पोखरायां पूर्वेद्युः प्रेस चौतारी संस्थायाः कास्की जनपदीय शाखया आयोजिते पत्रकार सम्मेलने मन्त्री गुरुङ नेपालस्य भूमिः भारतेन उपयुज्यमानास्ति इत्यतः अस्य विषयस्य समाधानं कूटनीतिकरूपेण विधातव्यमिति उदैरयत्। लिपुलेख लिम्पियाधुरा कालापानी स्थानानि नेपालस्य स्वामित्वे सन्तीति तथ्यप्रमाणानि सन्तीति चर्चयन् मन्त्री गुरुङ देशद्वयस्य व्यापारस्य नाम्नि तटीय मार्गः निर्मातुं न शक्यते सहैव अस्य विषयस्य समाधानं कूटनीतिकमाध्यमेन विधास्यते चेति ज्ञापितवान्। नेपालस्य निषिद्ध क्षेत्रस्य अभ्यन्तरे व्यापारस्य कृते तटीय मार्गस्य निर्माणस्य विषयः नेपालस्य अभिरुचेर विषयः सम्भूतोऽस्ति इति मन्त्री गुरुङ अवदत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति संस्कृति पर्वोत्सवैः देशस्य मौलिकतायाः संरक्षणं विधीयते इत्यतः एतेषां संरक्षणाय प्रवर्धनाय च नैरन्तर्येण सर्वैः प्रवर्तनीयम्। राष्ट्रपति भवने पूर्वेद्युः आयोजिते हरितालिका पर्वणः शुभकामनायाः आदान प्रदान कार्यक्रमे राष्ट्रपतिः पौडेलः नेपालस्य संविधाने अधिनियमेषु नियमेषु च महिला सम्बद्धानां बहूनाम् अधिकाराणां विषयाणां व्यवस्था विहिता वर्तते अतः परं तेषां क्रियान्वयनाय सर्वैः ध्यानं केन्द्रीकर्तव्यमिति प्रावोचत्। नूतन संसद भवनस्य सम्मेलन प्रणाल्या ह्य परीक्षणं विधाय नमूना प्रदर्शनं विहितं वर्तते। नूतन संसद भवनस्य सम्मेलन प्रणाल्या विषये संचालनं कथं विधास्यते इत्यस्य प्रदर्शनं उपप्रधान नगरीय विकास मन्त्रिणः प्रकाशमान सिंहेन सहितानां संघीय संसदः महासचिवस्य सचिवस्य सचिवालयस्य प्रतिनिधिनां च समक्षं ह्यो विहितमासीत्। सिंहप्रासादस्य अभ्यन्तरे एव निर्मीयमाणे संसद भवने विभिन्न देशेषु प्रयुज्यमाना आधुनिक प्रणाली एव नेपालस्य संसदि प्रयुक्ता अस्ति इति नगरीय विकास मन्त्रालयस्य सचिवः गोपाल सिग्देलः असूचयत्। डेंगू रोगस्य संक्रमणं चतुस्सप्तत्यां जनपदेषु प्रसृतमस्ति। वृष्टेः अनन्तरं डेंगू रोगस्य संक्रमणं वर्धमानमस्ति। संक्रामक रोग नियन्त्रण महाशाखायाः कीटजन्य रोग शाखायाः प्रमुखस्य डॉ गोकर्ण प्रसाद दाहालस्य अनुसारेण सप्तचत्वारिंशति च जनेषु डेंगू रोगस्य संक्रमणं पुष्टीभूतमस्ति। अत्रान्तरे पश्चात्तनसमये डेंगू रोगिणां संख्यायाः वर्धमानानन्तरं काष्ठमण्डप महानगरपालिकया डेंगू रोग नियन्त्रणाभियानं संचालितमस्ति। इति समाचारः।